श्री परमात्मने नमः। यथार्थ गीता, श्रीमद् भगवद् गीता, अथ अष्टादशोऽध्यायः। अयं गीतायाः अन्तिमः अध्यायः, यस्य पूर्वार्धे योगेश्वरेण श्रीकृष्णेन प्रस्तुतानाम् अनेकेषां प्रश्नानां समाधानं कृतम्, तथा उत्तरार्धे गीतायाः उपसंहारः अस्ति यत् गीतायाः को लाभः। सप्तदशमे अध्याये आहारस्य, तपसः, यज्ञस्य, दानस्य तथा विभागसहितं श्रद्धायाः स्वरूपं वर्णितम्। तस्मिन् सन्दर्भे त्यागस्य प्रकारः अवशेषः अस्ति। मनुष्यः यत्किञ्चित् करोति तत्र को हेतुः? कः कारयति? भगवान् कारयति प्रकृतिर्वा? अयं प्रश्नः पूर्वतः आसीत् प्रारम्भे, यदुपरि सप्तादशाध्याये पुनः प्रकाशः कृतः। अनेन प्रकारेणैव वर्णव्यवस्थायाः अपि चर्चा परिपूर्णा जाता। सृष्टौ तस्य स्वरूपस्य विश्लेषणम् अस्मिन् अध्याये वर्तते प्रस्तुतम्। अन्ते गीतातः प्राप्तव्यविभूतीनामुपरि प्रकाशः प्रसारितः। गतेषु अध्यायेषु नानाप्रकारकाणां विभाजनं श्रुत्वा अर्जुनः स्वयमेकं प्रश्नं प्रास्तौत् यत् त्यागसन्न्यासौ सविभागं वर्णयतु। अर्जुन उवाच:
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्, त्यागस्य च ऋषिकेश पृथक् केशिनिषूदन।
अर्जुन जगाद: हे महाबाहो, हे हृदय सर्वस्व, हे केशिनिषूदन, अहं त्यागसन्न्यासयोः यथार्थस्वरूपं सभेदं ज्ञातुमिच्छामि। पूर्णत्यागस्य नाम सन्न्यासोऽस्ति, यत्र सङ्कल्पसंस्कारयोः अपि समापनं जायते, ततश्च प्राक् साधनस्य परिपूर्तये चलित्वा उत्तरोत्तरम् आसक्तेः त्यागस्य नाम त्यागः अस्ति। अत्र तु द्वौ प्रश्नौ। प्रथमः सन्न्यासतत्त्वावबोधनम्, द्वितीयः अस्ति त्यागस्य सरहस्यं ज्ञानम्। उक्तसन्न्यासत्यागयोः तत्त्वं ज्ञातुं कामये। अत उपरि योगेश्वरः श्रीकृष्णः कथयति। श्रीभगवानुवाच:
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः, सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा।
अर्जुन, केचन पण्डितजनाः काम्यकर्मत्यागमेव सन्न्यासं ब्रुवन्ति, केचन च विचारशीलाः पुरुषाः सर्वेषां कर्मणां फलत्यागं त्यागं मन्यन्ते।
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः यज्ञदानतपःकर्म न त्याज्यमिति चापरे।
केचन विद्वांसः इत्थं कथयन्ति यत् सर्वाणि कर्माणि सदूषणानि सन्ति, अतः त्यक्तुमर्हाणि। अपरे च सुधियः इत्थं वदन्ति यत् यज्ञस्य दानस्य तपसश्च त्यागः न उचितः। इत्थम् अनेकानि मतानि प्रस्तूय योगेश्वरः स्वमतम् उपस्थापयति।
निश्चयं शृणु मे तत्र त्यागे भरत सत्तम त्यागो हि पुरुष व्याघ्र त्रिविध संप्रकीर्तितः।
अर्जुन, त्यागस्य विषये सुनिश्चितं मतं मम शृणु। हे पुरुषश्रेष्ठ, तत्त्यागः त्रिधोक्तः।
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणा।
यज्ञदानतपांसीति त्रीणि कर्माणि न त्यक्तुम् अर्हाणि इति त्रीणि तु कर्तव्यानि एव। कुतो हि यज्ञदानतपांसी त्रीणि इमानि पुरुषं पावयन्ति। श्रीकृष्णः प्रचलितमतचतुष्टयस्य चर्चां कृतवान्। प्रथमं काम्यकर्मणां त्यागः, द्वितीयं सम्पूर्णकर्मफलत्यागः, तृतीयं दोषयुक्तत्वात् सर्वकर्मत्यागः, चतुर्थं मतमासीत् यज्ञदानतपांसि त्यक्तुं योग्यानि न सन्ति। एतेषु एकस्मिन् मते स्वमतं प्रकटयन् उक्तवान् यत् अर्जुन, ममापि सुनिश्चितमतम् इदमस्ति यत् यज्ञदानतपांसि न त्यक्तुं योग्यानि। एतेन सिद्ध्यति यत् कृष्णकालेऽपि नैकानि मतानि प्रचलन्ति स्म, येषु एकं मतं यथार्थमासीत्। तदा अपि आसन् अनेकानि मतानि, साम्प्रतमपि सन्ति। महापुरुषः यदा आयाति संसारे, तर्हि मतमतान्तरेभ्यः कल्याणकारकं मतं निस्सार्य समाजस्य समक्षं प्रतिष्ठापयति। सर्वैः महापुरुषैः एवमेव कृतम्। श्रीकृष्णोऽपि तथैव कृतवान्। स न किमपि नूतनं मार्गं मार्गयामास, प्रत्युत प्रचलितानेकमार्गेभ्यः सत्यस्य समर्थनं विधाय तस्य स्पष्टीकरणं चकार।
एतान्यपि तु कर्माणि संगं त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ, निश्चितं मतमुत्तमम्।
योगेश्वरः श्रीकृष्णः सबलं कथयति। पार्थ, आसक्तिं फलत्यागञ्च विधाय यज्ञदानतपांसीति कर्माणि कर्तव्यानि सदा अनिवार्यरूपेण। इदम् उत्तमं मतं मम सुनिश्चितम्। इदानीम् अर्जुनस्य प्रश्नानुसारेण त्यागस्य विश्लेषणं करोति।
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते मोहात्तस्य परित्यागः तामसः परिकीर्तितः।
अर्जुन, नियत कर्म अर्थात श्री कृष्णस्य शब्देषु नियतम कर्म एक एव अस्ति, यज्ञस्य प्रक्रिया। योगेश्वरो नियत शब्दस्य अष्टौ दशवारं प्रयोगं विहितवान्, अत उपरि भूयो भूयः बलम् अददात्। यत् क्वचित् साधकः भ्रान्तः सन् अपरं कार्यं न कर्तुम् आरभेत, अनेन शास्त्रविधिना निर्धारितस्य कर्मणः त्यागः न उचितः। मोहात्तस्य त्यजनं तामसः त्यागः कथितः। सांसारिकविषयवस्तूनामासक्तौ निबद्धः कार्यकर्मस्य त्यागः तामसत्यागः कथ्यते। अर्थात् कार्यकर्म नियतकर्म परस्परं पूरकौ स्तः। ईदृशः पुरुषः अधोगतिं गच्छति नाम कीटपतङ्गपर्यन्ताधमयोनिषु याति। कुतो हि स भजनस्य प्रवृत्तीनां त्यागम् अकरोत्। इदानीं राजसत्यागः वर्ण्यते।
दुःखमित्येव यत् कर्म कायक्लेशभयात्यजे सकृत्वा राजसं त्यागम् नैव त्यागफलं लभे।
कर्माणि दुःखमयानि इति ज्ञात्वा शारीरिकक्लेशभयात् तेषां त्यागकर्ता व्यक्तिः राजसंत्यागं कृत्वापि त्यागस्य फलं न लभते, येन भजनं न पूरयेत्। कायाक्लेशभयात् अर्थात् अनेन भयेन कर्म त्यजेत् यच्छरीरे कष्टं भविष्यति, तस्य मनुष्यस्य त्यागः राजसः अस्ति। स त्यागफलरूपेण परमशान्तिं न प्राप्नोति। तथा
कार्यमित्येव यत् कर्म नियतं क्रियते अर्जुन संगं त्यक्त्वा फलं चैव सत्यागः सात्विको मतः।
अर्जुन, कार्यकरणं कर्तव्यमस्ति एवं ज्ञात्वा यः नियतम् अर्थात् शास्त्रविधिना निर्धारितं कर्म सङ्गदोषं फलं च त्यक्त्वा सम्पाद्यते, स एव सात्विकत्यागः अस्ति। अतः नियतकर्म करणीयं, तदतिरिक्तं कर्म त्याज्यम्। इदं नियतकर्म किम् अनवरतं क्रियमाणमेव भविष्यति, उद्वा अस्यापि कदापि त्यागो भविष्यति। अतः परं कथयति अन्तिमत्यागस्य रूपम् अवलोकनीयम्।
न द्वेष्टकुशलं कर्म कुशलेनानुषड् जते त्यागी सत्त्वसमाविष्टो मेधावी छिन्न संशयः।
अर्जुन, यः पुरुषः अकुशलं कर्म अर्थात् अकल्याणकरकर्मेभ्यः नाम शास्त्रनियतकर्मैव कल्याणकरमस्ति। तद्विपरीतं सर्वं कर्म अस्य लोकस्य बन्धनमस्ति। अत एव अकल्याणकारकं यत् कर्म तेभ्यः द्वेषं नहि करोति, कल्याणकरे कर्मणि आसक्तः न भवति, यत् करणीयमासीत् तदपि न अवशिष्टम्। एवं सत्त्वसंयुक्तः पुरुषः संशयरहितः ज्ञानवान् त्यागी च अस्ति। तेन सर्वं त्यक्तं, किन्तु प्राप्त्या सह सम्पूर्णत्यागः एव संन्यासः कथ्यते। अन्योऽपि कश्चित् सरलोपायः अपि सम्भवेत्? अतोपरि कथयति नहि। पश्यतु,
नहि देहभृता शक्यम् त्यक्तुं कर्माण्यशेषतः, यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते।
देहधारी पुरुषाणां द्वारा अर्थात् केवलं शरीरमेव नहि यद् भवान् पश्यति, श्रीकृष्णमतानुसारेण प्रकृतिजानि सत्त्वरजस्तमांसीति त्रयो गुणाः अमुं जीवात्मानं शरीरेषु निबध्नन्ति। यावदिमे गुणाः जीविताः सन्ति तावदेव जीवधारी। येनापि केन रूपेण शरीरपरिवर्तनं कुर्वन् स्थास्यति, देहहेतोः यावज्जीवति तावत् सम्पूर्णतया सर्वकर्मत्यागः सम्भवः नास्ति। अत एव यः पुरुषः कर्मफलस्य त्यागकर्ता अस्ति स एव त्यागी कथ्यते। अतः यावत् शरीरकारणानि जीवन्ति तावत् नियतकर्म विदधीत, तस्य फलं नेच्छेत, प्रतिफलरूपेण कापि कामना न भवेत्। सामान्यतया सकामी पुरुषाणामपि कर्मणः फलं भवति।
अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलम् भवत्यत्यागिनां प्रीत्य न तु संन्यासिनां क्वचित्।
सकामपुरुषाणां कर्मणां श्रेष्ठम् अधमं मिश्रितं चैव त्रिधा फलम् मरणानन्तरमपि मिलति। जन्मजन्मान्तरं यावत् मिलति, किन्तु सन्न्यासिनाम् अर्थात् सर्वस्वस्य न्यासम् अन्तः कर्तॄणां पूर्णत्यागिनां पुरुषाणां कर्मफलं कस्मिंश्चिदपि काले न भवति। एष एव शुद्धसन्न्यासः, परमोत्कृष्टा स्थितिः कथ्यते। उत्तमाधमकर्मणां फलस्य तथा पूर्णन्यासकाले तस्यान्तस्य प्रश्नः पूर्णो जातः। साम्प्रतं पुरुषद्वारा शुभकर्मविधाने तथा अशुभकर्मविधाने कारणं किमस्ति? अत उपरि पश्यन्तु।
पञ्चैतानि महाबाहो कारणानि निबोध मे, सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणा।
महाबाहो संपूर्णकर्मणां संसिद्ध्यर्थं पञ्चकारणानि सांख्यसिद्धान्ते सन्ति उल्लिखितानि, तानि त्वं मत्तः सम्यगवगतं कुरु।
अधिष्ठानं तथा कर्ता करणं च पृथग्विधं विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्।
अस्मिन् विषये कर्ता नाम इदं मनः पृथक् पृथक् करणानि अर्थात् येषां माध्यमेन कार्यं सम्पद्यते, यदि शुभं कार्यं पूरयेत् तदा विवेकः वैराग्यं शमः दमः त्यागः अनवरतचिन्तनप्रवृत्तयः करणानि भविष्यन्ति, यदि अशुभं कर्म सिद्ध्यति तदा कामक्रोधरागद्वेषलिप्सादयः करणानि भविष्यन्ति। एतेषां प्रेरणायाः सबलता नानाप्रकारिकाः नानाचेष्टाः अनन्तेच्छाः आधारः अर्थात् साधनं, यदिच्छया सह साधनम् अमिलत् सैवेच्छा पूर्णतां याति। पञ्चमो हेतुः दैवम् अर्थात् संस्कारः तदेव पुष्णाति।
शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः।
मनुष्यः मनोवाण्या तथा शरीरेण शास्त्रानुसारेण तथा तद्विपरीतं यद्यत् कर्म आरभते तेषां कर्मणाम् इमानि पञ्चकारणानि सन्ति, परन्तु एवं सत्यपि
तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः पश्यत्यकृतबुद्धित्वान् न स पश्यति दुर्मतिः।
यः पुरुषः दुष्टबुद्धेः कारणेन तस्मिन् विषये कैवल्यस्वरूपमात्मानं कर्तारूपेण पश्यति, स दुर्बुद्धिः यथार्थं न अवलोकयति अर्थात् भगवान् न करोति। अस्मिन् प्रश्ने कृष्णः द्वितीयवारं ददौ बलम्। पञ्चमाध्याये तेनोक्तं यत् प्रभुः न कारयति न च करोति न च क्रियासंयोगं युनक्ति, तर्हि जनाः कथयन्ति कथं मोहावृतानां जनानां बुद्धिः आक्रान्ता, एतेन किमपि वक्तुं शक्नुवन्ति। अत्र अपि अस्ति वर्णनं कर्मसिद्धौ सन्ति पञ्चकारणानि, तद्विधौ अपि कैवल्यस्वरूपं परमात्मानं कर्तारूपेण पश्यति, स मूढबुद्धिः यथार्थं न पश्यति अर्थात् न करोति भगवान्। यदा तु अर्जुनस्य हेतवे सः जघनतालध्वनिर्भवति समुद्यतः निमित्तमात्रं भव, यत्कर्ता धर्ता तु अहमस्मि, त्वं निमित्तो भूत्वा सन्नद्धो भव। अन्ततः सः महापुरुषः किं वक्तुमिच्छति? वस्तुतः भगवतः प्रकृतेश्चान्तराले वर्तते समाकर्षणस्य एका रेखा। यावत् साधकः प्रकृतेः सीमाक्षेत्रे वर्तते भगवान् न किमपि करोति, आत्यन्तिकं स्थित्वापि द्रष्टारूपेणैव वर्तते। अनन्यभावेन इष्टं संगृहिते सति सः हृदयदेशे सञ्चालको भवति। साधकः प्रकृतेराकर्षणसीम्नोः बहिर्भूय तस्य क्षेत्रे समायाति। एवं दृशस्य अनुरागिणः कृते असौ सर्वदा स जघनतालध्वनिः सदैव समुपस्थितो विराजते। केवलं तदर्थमेव भगवान् करोति, अतः चिन्तनीयं, प्रश्नः पूर्णः, अग्रे निरीक्षणीयम्।
यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते, हत्वापि स इमां लोकान् न हन्ति न निबध्यते।
यस्य पुरुषस्यान्तःकरणे अहङ्कर्तास्मि एतादृशो भावो न वर्तते, तथा यस्य बुद्धिः लिम्पायमाना नास्ति, स पुरुषः समस्तं लोकं हत्वापि वस्तुतः न मारयति न च निबध्यते। लोकसम्बद्धानां संस्काराणां विलयः एव लोकसंहारः अस्ति। साम्प्रतं तस्य नियतकर्मणः प्रेरणा कथं भवति? अत उपरि निरीक्ष्यम्।
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म कर्तेति त्रिविध कर्म संग्रहः।
अर्जुन परिज्ञाता अर्थात पूर्णज्ञः, महापुरुषेभ्यः ज्ञानं अर्थात तस्य अवबोधस्य विधिना च ज्ञेयं, नाम ज्ञातुं योग्यं वस्तु इति ज्ञानं। ज्ञेयं परिज्ञातृभिः कर्मसम्पादनस्य प्रेरणा मिलति। अत्र श्रीकृष्णेन पूर्वमुक्तं अहमेव ज्ञेयोऽस्मि। प्रथमं तु पूर्णज्ञाता कश्चिन् महापुरुषः भवेत्, तद्द्वारेणोक्तज्ञानस्य अवबोधस्य विधिः लभेत, लक्ष्ये ज्ञेये दृष्टिः स्यात्, तदैव कर्मणः प्रेरणा मिलति। कर्तुः नाम मनसः संलग्नता, करणं नाम विवेकः, वैराग्यं, शमः, दमः इत्यादयः, तथा कर्मणः ज्ञानेन कर्मसङ्ग्रहः भवति। कर्म एकत्रितं भवितुं प्रारभते। पूर्वमुक्तं यत् प्राप्तेः अनन्तरं तस्य पुरुषस्य कर्मणा न भवति किमपि प्रयोजनं, कर्मत्यागेन अपि न काचिद् हानिः। पुनरपि लोकसङ्ग्रहाय अर्थात् पृष्ठानुवर्तिनां हृदये कल्याणकारकानां साधनानां सङ्ग्रहाय स कर्म करोति। कर्ता कर्म करणश्चैतेषां सङ्ग्रहो भवति। ज्ञानस्य कर्मणः कर्तुश्च त्रयस्त्रयो भेदाः भवन्ति।
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः प्रोच्यते गुणसंख्याने यथावच्छृणुतान्यपि।
ज्ञानम कर्म तथा कर्तापि गुणानां भेदेन सांख्यशास्त्रानुसारतः त्रिधा त्रिधा वर्णितः। त्वमपि तान् भेदान् यथावत् शृणु। प्रथमं ज्ञानस्य भेदः प्रस्तुतं विद्यते।
सर्वभूतेषु येनैकम् भावमव्ययमीक्षते अविभक्तं विभक्तेषु तद्ज्ञानं विद्धि सात्विकम्।
अर्जुन, येन ज्ञानेन मनुष्यः पृथक् पृथक् सर्वभूतेषु एकम् अविनाशिनं परमात्मानम् इति भावम् अखण्डम् एकरसं पश्यति तज्ज्ञानं त्वं सात्विकं जानीहि। ज्ञानं प्रत्यक्षानुभूतिः अस्ति, येन सहैव गुणानाम् अन्तः आवश्यकः। इयं ज्ञानस्य परिपक्वावस्था। इदानीं राजसज्ञानं पश्य।
पृथक्त्वेन तु यद्ज्ञानम् नानाभावान् पृथग्विधान् वेत्ति सर्वेषु भूतेषु तद्ज्ञानं विद्धि राजसम्।
यज्ज्ञानं सम्पूर्णभूतेषु भिन्नभिन्नप्रकारेण नानाभावान् पृथक् कृत्वा जानाति, यद् इदम् उत्तमम् इदम् अधमम् तज्ज्ञानं त्वं राजसं जानीहि। एतादृशी स्थितिः अस्ति तर्हि तव ज्ञानं राजसस्तरे वर्तते। सम्प्रति तामसज्ञानम् अवलोकनीयम्।
यत्तु कृत्स्नवदे कस्मिन् कार्ये सक्तमहैतुकम् अतत्त्वार्थवदल्पं च तत्तामसमुदारितम्।
यज्ज्ञानम् एकमात्र शरीरांतर्गतमेव संपूर्णतायाः सदृशं आसक्तम् अस्ति, यदनु न कापि क्रिया यत् युक्तिरहितं तत्त्वस्य अर्थस्वरूपस्य परमात्मनः बोधात् पृथक्कारकं तुच्छञ्चास्ति तज्ज्ञानं तामसं कथ्यते। कर्मणः त्रयो भेदाः तदग्रे वर्णिताः।
नियतं संगरहितं अरागद्वेषतकृतं अफलप्रेप्सुना कर्म यत्तत् सात्विकमुच्यते।
यत् नियतं कर्म शास्त्रविधिभिः निर्धारितमस्ति, अन्यं नहि। संगदोषयुतेन फलेच्छारहितेन पुरुषेण च रागद्वेषाभावेन क्रियते तत्कर्म सात्विकम्। नियतकर्म नाम आराधना चिन्तनमस्ति, यः परमे प्रवेशं दापयति।
यत् तु कामेऽप्सुना कर्म साहंकारेण वा पुनः क्रियते बहुलायासम् तद्राजसमुदारितम्।
यत् कर्म महता परिश्रमेण युक्तम् अस्ति फलेच्छुना साहंकारेण च पुरुषेण क्रियते तत् राजसंकर्म कथ्यते। अयम् पुरुषः अपि तदेव नियतं कर्म करोति, किन्तु अन्तरं तु एतन्मात्रमस्ति यत् फलेच्छायुतम् अहंकारयुतं च भवति। अत एव तद्द्वारा कार्यं कर्म राजसं कथ्यते, तामसं कर्म बोध्यम्।
अनुबन्धं क्षयं हिंसा अनवेक्ष्य च पौरुषम् मोहादारभ्यते कर्म यत्तत्तामसमुच्यते।
यत् कर्म अन्ततः नष्टं भवति, यत् कर्म हिंसाम् अनवलोक्य केवलं मोहवशेन प्रारभ्यते, यत् कर्म नश्वरं चास्ति तत् कर्म तामसं वदन्ति सुधियः। स्पष्टमस्ति इदं कर्म शास्त्रस्य नियतं कर्म न अस्ति, तत्स्थाने वर्तते भ्रान्तिः, कर्तुः लक्षणं ज्ञेयम्।
मुक्तसङ्गो नहं वादी धृत्युत्साह समन्वितः सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते।
यहाँ कर्ता संग दोष विनिर्मुक्तो भूत्वा अहंकार रहितः प्रियंवदः धैर्येण उत्साहेन च युक्तो भूत्वा कार्यस्य सिद्धावसिद्धौ हर्षशोक विकार रहितो भूत्वा कर्मणि प्रवर्तते स कर्ता सात्विक कर्ता समुच्यते। इदमेव उत्तम साधकस्य लक्षणम् अस्ति, कर्म तदेवास्ति नियत कर्म।
रागी कर्म फल प्रेप्सुः लुब्धो हिंसात्मको शुचिः हर्षशोकान्वितः कर्ता राजस परिकीर्तितः।
आसक्तियुक्तः कर्मफलाभिलाषुकः लोलुपः आत्मानं कष्टदः अपवित्रः हर्षशोकपरिव्याप्तः स कर्ता राजस उच्यते।
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोलसः विषादी दीर्घसूत्री च कर्ता तामस उच्यते।
यश्चञ्चलचित्तः असभ्यः गर्वोन्मत्तः धूर्तः परकार्यबाधाकरः सालस्यः दीर्घसूत्री च अस्ति तर्कयति तत्कार्यं पुनः करिष्यामि स कर्ता तामस उच्यते। अयं दीर्घसूत्री अद्य कर्तव्यं कर्म श्व उपरि लम्बयति। सम्प्रति योगेश्वरः श्रीकृष्णः नवीनं प्रश्नमुत्थापयति, बुद्धेः धारणायाः सुखस्य च कानि लक्षणानि?
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श्रृणु प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय।
धनंजय, बुद्धि धारणा शक्त्योरपि गुणानुसारेण भेदत्रयं मत्तः शृणु।
प्रवृत्तिंच निवृत्तिंच कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्विकी।
पार्थ, प्रवृत्तिं निवृत्तिंच कर्तव्यम कर्तव्यंच भयम भयंच बन्धनं मोक्षंच या बुद्धिः यथार्थ रूपेण जानाति सा बुद्धिः सात्विका ज्ञेया। अर्थात् परमात्मपथि यातायातस्य सम्यक् ज्ञानं सात्विकी बुद्धिः अस्ति। यथा
यया धर्ममधर्मं च कार्यं चाकार्यमेव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी।
पार्थ, यया बुद्ध्या मनुष्यः धर्माधर्मौ तथा कर्तव्याकर्तव्यौ अपि यथावत् न जानाति सा बुद्धिः राजसी प्रोक्ता। तामसीम् अवलोकय।
अधर्मं धर्ममिति या मन्यते तमसावृता सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी।
पार्थ, तमोगुणाच्छादिता बुद्धिः अधर्मं धर्मरूपेण मन्यते, सम्पूर्णं हितं विपरीतं पश्यति, सा बुद्धिः तामसी कथिता। अत्र त्रिंशत् श्लोकतः द्वात्रिंशत् श्लोकं यावत् बुद्धेस्त्रयो भेदाः वर्णिताः। प्रथमा बुद्धिः विवेचयति यत् कस्मात् कार्यात् निवृत्तिः, कस्मिंच प्रवृत्तिः, किं कर्तव्यं किं न कर्तव्यम् इत्यस्य ज्ञानं धारयति सा बुद्धिः सात्विकी कथ्यते। या बुद्धिः कर्तव्याकर्तव्यौ शिथिलरूपेण बोधयति यथार्थं न जानाति सा राजसी बुद्धिः, तथा च या बुद्धिः अधर्मं धर्मं नश्वरं शाश्वतं हितं अहितं चेत्थं विपरीतबोधकारिका बुद्धिः सा तामसी कथ्यते। बुद्धेर्भेदाः समाप्ताः। द्वितीयः प्रश्नस्तु का धृतिः?
धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः योगेनाव्यभिचारिण्या धृतिस्सा पार्थ सात्विकी।
योगेन अर्थात यौगिक प्रक्रिया द्वारा अव्यभिचारिणी अर्थात योग चिंतनातिरिक्तम अपरस्य कस्यापि स्फुरणम व्यभिचारः अस्ति। चित्तस्य भ्रांता स्थितिः व्यभिचारः कथ्यते। अत एवम् अव्यभिचारिण्या धारणया मनुष्यः मनः प्राणान् इन्द्रियाणि क्रियाश्च यो धारयति सा धारणा सात्विकी अर्थात् मनः प्राणानिन्द्रियाणि इष्टाभिमुखं प्रेरणं सात्विकी धारणा कथ्यते।
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन प्रसंगेन फलाकांक्षी धृतिस्सा पार्थराजसी।
पार्थ, फलेच्छावान मनुष्यः अत्यासक्तियुतः यया धारणया धर्मार्थ कामान धारयति नाम मोक्षम नहि, सा धारणा राजसी कथिता। अस्याम धारणायामपि लक्ष्यं तदेवांतरं तु केवलं कामनाधिक्यस्य। यत्किंचित् करोति तस्य प्रतिफलं कामयते। तामसीं धारणाम् अवलोकय।
यया स्वप्नं भयं शोकम् विषादं मदमेव च न विमुञ्चति दुर्मेधा धृतिस्सा पार्थ तामसी।
पार्थ, दुष्टबुद्धि युतः मनुष्यः यया धारणया निद्रा भयं चिंता दुःखं अभिमानं चापि नैतान् त्यजति तेषां धारणं करोति सा धारणा तामसी कथ्यते। प्रश्नोऽयं पूर्णः, सुखं प्रस्तूयते।
सुखं त्विदानीं त्रिविधम् श्रीणु मे भरतर्षभ अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति।
अर्जुन, इदानीं सुखस्यापि भेदत्रयं मत्तः शृणु। तेषु यस्मिन् सुखे साधकः अभ्यासेन रमते अर्थात् चित्तं संयोज्य इष्टे रमणं करोति, दुःखस्य यः अन्तं करोति तथा।
यत्तदग्रे विषमिव परिणामे मृतोपमम् तत्सुखं सात्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम्।
उपर्युक्त सुखं साधनायाः आरंभकाले यद्यपि विषसदृशं प्रतीयते, यथा प्रह्लादः शूलिमारूढितः मीरायै विषं दत्तम्। कबीरः कथयति, सुखिया सब संसार हे खावे और सोवे, दुखिया दास कबीर हे जागे और रोवे। अतः तद आरंभे विषवद् भासते, परंतु परिणामे सुधातुल्यमस्ति, अमृततत्त्वस्य दायकमस्ति, अतः आत्मविषयकं बुद्धिप्रसादतः समुत्पन्नं सुखं सात्विकमस्ति।
विषयेन्द्रियसंयोगात् यत्तदग्रे मृतोपमम् परिणामे विषमिव तत्सुखं राजसं स्मृतम्।
यत्सुखं विषयेन्द्रियसंयोगात् लभ्यते तद्भोगकाले यद्यपि अमृतवत् प्रतीयते किन्तु परिणामे विषोपमं, कुतो हि तत्सुखं जन्ममरणयोः कारणमस्ति, अतः तत्सुखं राजसं कथ्यते।
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्य प्रमादोत्थम् तत्तामसमुदारितम्।
यत् सुखं भोगकाले परिणामकाले अपि आत्मानं मोहगर्ते पातयति, निद्रा या निशा सर्वभूतानाम् अर्थात् जगतः निशायां निश्चेष्टं कारकम् आलस्येन नाम निरर्थकचेष्टाभिः उत्पन्नं तत् सुखं तामसं कथ्यते। इदानीं योगेश्वरः गुणतथ्यं वर्णयति, ये गुणाः सर्वम् अनुसरन्ति।
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तम् यदेभिः स्यात् त्रिभिर्गुणैः।
अर्जुन, पृथिव्यां स्वर्गे देवगणेषु च न कोऽपि एतादृशः प्राणी यः प्रकृतिजैः त्रिभिः गुणैः मुक्तो भवेत्। अर्थात् ब्रह्मणः आरभ्य कीटपतङ्गं यावन्मात्रं जगत् क्षणभङ्गोरं मरणधर्मा चास्ति, सर्वे त्रिगुणान्तर्गताः सन्ति, अर्थात् देवाः अपि त्रिगुणानां सन्ति, विकाराः तेन तेषां नश्वरत्वं सिद्धम्। एतान् अत्र बाह्यदेवान् योगेश्वरः चतुर्थवारं गृहीतवान्। सप्तमाध्याये, नवमाध्याये, सप्तदशाध्याये, अष्टादशाध्याये च एतेषाम् उक्ताध्यायानाम् एतत् विषयकः अर्थः एकः एव, यत् देवाः त्रिगुणान्तरवर्तिनः सन्ति, एतान् ये भजन्ति ते नश्वरमर्चन्ति। श्रीमद्भागवतस्य द्वितीयस्कन्धे महर्षिशुकदेवस्य परीक्षितस्य च आख्यानं प्रसिद्धमस्ति, यस्मिन् उपदेशं ददानाः ते कथयन्ति यत् स्त्रीपुरुषयोः प्रेमवर्धनाय शङ्करपार्वत्योः, आरोग्यवर्धनाय अश्विनीकुमारयोः, विजयवर्धनाय इन्द्रस्य तथा धनवर्धनाय कुबेरस्य पूजा कर्तव्या। अनेन प्रकारेण विविधाः कामनाः वर्णयित्वा निर्णयं दत्ते यत् सम्पूर्णकामनानां पूर्तये मोक्षाय चैकमात्रं नारायणस्य पूजा करणीया। तुलसीमूलहि सिचिये फुलै फलै अघायी। अतस्तु सर्वव्यापकस्य प्रभोः स्मरणं कार्यं, तस्य पूर्तये सद्गुरोः शरणं निष्कपटभावेन प्रश्नविधानं सेवा चैकमात्रम् उपायः। आसुरी दैवी च सम्पदौ अन्तःकरणस्य द्वे वृत्ती वर्तेते। ययोः दैवी सम्पद् परमदेवस्य परमात्मनः दिग्दर्शनं कारयति, अत एव सा दैवी सम्पत् कथ्यते। किन्तु इयमपि गुणत्रयान्तर्गता। गुणशान्त्यनन्तरम् अस्यापि शान्तिः भवति। तदनन्तरं तस्य आत्मतृप्तस्य योगिनः न किमपि कर्तव्यम् अवशिष्टं वर्तते। इदानीं प्रस्तुतमस्ति पूर्वारम्भभूतः वर्णव्यवस्थायाः प्रश्नः। वर्णः जन्मप्रधानः अस्ति अथवा कर्मणां माध्यमेन प्राप्तव्यान्तःकरणस्य योग्यतायाः नाम अस्ति। अत्र प्रेक्षणीयम्
ब्राह्मणक्षत्रियविशाम् शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः।
परन्तप ब्राह्मणक्षत्रियवैश्यशूद्राः कर्मस्वभावतः समुत्पन्नगुणानां माध्यमेन विभक्ताः सन्ति। स्वभावे सात्विकगुणस्य विद्यमानत्वे भवति सति निर्मलता भविष्यति, ध्यानसमाध्योः क्षमता भविष्यति। तामसीगुणस्य विद्यमानत्वे आलस्यं निद्रा प्रमादाश्च स्थास्यन्ति। तेनैव स्तरेण भवता कर्म करिष्यते। यो गुणः वर्तमानकाले कार्यरतः भवति तदेव भवतः वर्णस्वरूपं चास्ति। अनेन प्रकारेण अर्धसात्विकेन तथा अर्धराजसेन क्षत्रियाणाम् एकः वर्णः जायते। अर्धतः न्यूनेन तामसेन विशेषराजसेन जायते द्वितीयः वर्गः वैश्यस्य अस्ति। इमं प्रश्नं योगेश्वरः श्रीकृष्णः अत्र चतुर्थवारम् उत्थापितवान्। द्वितीयाध्याये एषु चतुर्षु वर्णेषु एकस्य क्षत्रियस्य नाम गृहीतं कृष्णेन, यत् क्षत्रियस्य कृते युद्धम् एव उत्तमः श्रेयस्करः मार्गः अस्ति। तृतीयाध्याये तेनोक्तं यत् दुर्बलगुणवतां मनुष्याणां कृतेऽपि तस्य स्वभावतः उत्पन्नयोग्यतानुसारेण धर्मे प्रवर्तनम्। तस्मिन् धर्मे मरणमपि परमश्रेयस्करं भवति, अपरेषाम् अनुकरणं भयङ्करं भवति। चतुर्थाध्याये तेन प्रतिपादितं यत् चतुर्णां वर्णानां सृष्टिः मया कृता, किं तावत् मानवानां चतसृषु जातिषु विभाजनं कृतं? तद् अत्र उच्यते नहि, गुणकर्मविभागशः। अर्थात् गुणानां योग्यतानुसारेण कर्म चतसृषु सोपानेषु अस्ति विभाजितम्। अत्र गुणः एकः मापदण्डः अस्ति, तद्द्वारेण मापनं कृत्वा कर्मविधानं चतुर्षु भागेषु विभक्तम्। श्रीकृष्णस्य शब्देषु अव्यक्तपुरुषस्य प्राप्तेः अस्ति प्रक्रिया कर्म एकमात्रम्, ईश्वरप्राप्तेः आचरणम् आराधना समुच्यते। यस्यारम्भः ममैकेष्टे श्रद्धया भवति, चिन्तनस्य विधिविशेषः अस्ति यस्य वर्णनं पूर्वं कृतम्। एतस्य यज्ञस्यार्थकृते कर्म भागचतुष्टयेषु व्यभज्यत। कथम् अवगच्छेयम्? यन्मयि सन्ति के गुणाः, कस्याः श्रेण्याश्च? अत उपरि कथयति।
शमो दमस्तपःशौचम् क्षान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यम् ब्रह्मकर्म स्वभावजम्।
मनसः शमनम्, इन्द्रियदमनम्, पूर्णपवित्रता, मनः वाणीं शरीरं च इष्टानुरूपं तापनम्, क्षमाभावः, मनसः इन्द्रियाणां शरीरस्य च सर्वथा सारल्यम्, आस्तिकबुद्धिः अर्थात् एकस्मिन् इष्टे दृढा आस्था, ज्ञानम् अर्थात् परमात्मनः ज्ञानस्य सञ्चारः, विज्ञानम् अर्थात् परमात्मनः प्राप्तव्यनिर्देशस्य जागृतिः, एवं तदनुसारेण आचरणस्य क्षमता, एते सर्वे स्वभावजाः ब्राह्मणस्य, तस्य च सन्ति कर्माणि। अर्थात् यदा स्वभावतः इमाः योग्यताः प्राप्ताः भवेयुः, कर्माणि धारावाहिरूपेण भूत्वा स्वभावे सन्निविष्टानि स्युः, तदा सः ब्राह्मणश्रेणिकः कर्ता अस्ति तथा।
शौर्यं तेजो धृतिर्दाक्ष्यम् युद्धे चाप्यपलायनम् दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्।
शौर्यं वीरत्वञ्च ईश्वरीयतेजसः समुपस्थितिः, धैर्यं चिन्तने दाक्षिण्यम् अर्थात् कर्मसु कौशलम् नाम कर्मविधाने चातुर्यम्, प्रकृतेः सङ्घर्षात् पलायनाभावस्य स्वभावः, दानम् अर्थात् सर्वस्वस्य समर्पणम्, सर्वभावोपरि स्वामित्वम् अर्थात् ईश्वरभावः, एतत् सर्वं क्षत्रियस्य स्वभावजानि स्वभावात् उत्पन्नानि कर्माणि सन्ति। एताः सर्वाः योग्यताः स्वभावे मिलन्ति, तदा तु सः कर्ता क्षत्रियः अस्ति। इदानीं वैश्यशूद्रयोः स्वरूपं प्रस्तूयते।
कृषिगौरक्षवाणिज्यम् वैश्यकर्म स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्।
कृषिः गोरक्षाव्यवसायः च वैश्यस्य स्वभावजन्यानि सन्ति। गोपालनमेव कथम्? महिषीः मारयेयुः, अजाः न पालयेयुः, नैतत् किमपि। पुरातनवैदिकवाङ्मये गोशब्दः अन्तःकरणस्य इन्द्रियस्य च कृते प्रचलितः अपि आसीत्। गोरक्षायाः अर्थः अस्ति इन्द्रियरक्षा। विवेकवैराग्यशमादमादिभिः इन्द्रियाणि सुरक्षितानि भवन्ति। कामक्रोधलोभमोहादिभिः विभक्ताः भवन्ति, क्षीणायन्ते। आत्मिकसम्पत्तिः एव स्थिरा संपत्तिः अस्ति। इदं स्वकीयं निजं धनम् अस्ति। यद्वारमेकं मिलिते सति सदैव सान्निध्ये भवति। प्रकृतेः द्वन्द्वेषु तेषां शनैश्शनैः सङ्ग्रहकरणं व्यवसायः अस्ति। विद्याधनं सर्वधनप्रधानं, विद्यायाः अर्जनं वाणिज्यमस्ति। का कृषिः? शरीरमेव एकं क्षेत्रमस्ति। अस्यान्तराले सम्यगुप्तं बीजं संस्काररूपेण उत्तमम् अधमं च अङ्कुरायते। अर्जुन, अस्मिन् निष्कामकर्मणि बीजम् अर्थात् आरम्भस्य नाशः न भवति। तेषु कर्मसु अस्यां तृतीयश्रेण्यां कर्म अर्थात् इष्टचिन्तनस्य नियतकर्म, परमतत्त्वचिन्तनस्य यद्बीजम् अस्मिन् क्षेत्रे उप्यते तत् सुरक्षितं कुर्वन् सन् अस्मिन् आगन्तव्यानां विजातीयविकाराणां निराकरणविधानं नाम कृषिः अस्ति। कृषिनिरावही चतुरकिसाना, जिमिबुधतजहि मोहमदमाना इति रामचरितमानसम्। अनेन प्रकारेण इन्द्रियाणां सुरक्षा तथा प्रकृतेः द्वन्द्वात् आत्मिकसम्पत्तेः सङ्ग्रहणं तथा अस्मिन् क्षेत्रे परमतत्त्वसम्बद्धचिन्तनस्य संवर्धनम् एतत् वैश्यश्रेणिककर्म समुच्यते। श्रीकृष्णानुसारेण यज्ञशिष्टाशिनः अर्थात् पूर्तिकाले यज्ञः यद्ददाति तदस्ति परात्परब्रह्म। तस्य रसपानकर्तारः सन्तजनाः सम्पूर्णेभ्यः पापेभ्यः मुच्यन्ते। तस्य च शनैश्शनैः चिन्तनक्रियया बीजारोपणं भवति। तस्य सुरक्षा कृषिः अस्ति। वैदिकशास्त्रेषु अन्नस्य अर्थः अस्ति परमात्मा। असौ परमात्मा एकमात्रमशनम् अन्नमस्ति। चिन्तनस्य पूर्तिकाले अयम् आत्मा पूर्णतः तृप्यते, पुनर्कदापि न भवति अतृप्तः, न च जन्ममरणं भवति। इदं बीजम् उत्तरोत्तरम् अङ्कुरणं वर्धनञ्च कृषिः अस्ति। स्वावस्थातः उन्नतावस्थावतां गुरुजनानां सेवाकरणं शूद्रस्य स्वभावजं कर्म अस्ति। शूद्रस्य अर्थः नीचः नहि, अपि तु अल्पज्ञः। निम्नश्रेणिकः साधकः एव शूद्रः अस्ति। प्रवेशिकाश्रेण्याः साधकः असौ परिचर्यातः एव प्रारम्भं कुर्यात्। शनैश्शनैः सेवया तस्य हृदये तेषां संस्काराणां सर्जनं भविष्यति। क्रमशश्च चलित्वा स वैश्य क्षत्रिय ब्राह्मणाधिष्ठानार्हः भवति। तदुत्तरं ब्रह्मणि प्रवेशं प्राप्स्यति। स्वभावः परिवर्तनशीलोऽस्ति। स्वभावपरिवर्तनेन सह वर्णपरिवर्तनं भवति। वस्तुतः इमे वर्णाः अत्युत्तमः, उत्तमः, मध्यमः, निकृष्टः च इति अवस्थाचतुष्टयम् अवलम्बते। कर्मपथे गतिशीलानां साधकानाम् उच्चावचानि चत्वारि सोपानानि सन्ति। कुतो हि? कर्म एक एव अस्ति, नियतं कर्म। श्रीकृष्णः कथयति यत् परमसिद्धिप्राप्तेः अयमेकैव पन्थाः, यत् स्वभावे यादृशी योग्यता अस्ति ततः एव संलगेत्। अग्रे द्रष्टव्यम्।
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः स्वकर्म निरतः सिद्धिं यथा विन्दति तच्छृणु।
स्वस्वभावे सन्निहित योग्यतानुसारेण कर्मणि संलग्नः मनुष्यः संसिद्धिम् अर्थात् भगवत्प्राप्तिरूपिणीं परमसिद्धिं प्राप्नोति। पूर्वमपि उक्तम् इदं कर्म कृत्वा त्वं परमसिद्धिं प्राप्स्यसि। कीदृशं कर्म कृत्वा? अर्जुन, त्वं शास्त्रविधिना निर्धारितं कर्म यज्ञार्थं कर्म कुरु। इदानीं स्वकर्मविधानक्षमतानुसारेण संलग्नः मनुष्यः परमसिद्धिं कथं प्राप्नोति? तं विधिं त्वं मत्तः शृणु, ध्यानं देयम्।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् स्वकर्मणात्तमभ्यर्च सिद्धिं विन्दति मानवः।
यस्मात् परमात्मनः सर्वाणि भूतानि उत्पन्नानि अभवन्, येन इदं सम्पूर्णं जगत् व्याप्तमस्ति, तं परमेश्वरं स्वकर्मणा नाम स्वभावात् उत्पन्नकर्मद्वारा अर्चयित्वा मानवः परमसिद्धिं प्राप्नोति। अतः परमात्मनः भावना परमात्मनः सर्वाङ्गीणम् अर्चनं क्रमश्च अग्रेसरत्वम् आवश्यकमस्ति। यथा कश्चिद् उच्चैः कक्षायां प्रविशेत् तर्हि लघुकक्षामपि निरर्थकं करिष्यति, उच्चकक्षा तु प्राप्स्यति नहि। अतः अस्मिन् कर्मपथे सोपानक्रमेण गमनस्य विधानमस्ति। यथा अष्टादशाध्यायस्य षष्ठे श्लोके कथितम्। अत्रैव पुनः बलं ददानः कथयति कृष्णः, यदि भवान् अस्ति अल्पज्ञः तदापि ततः एव आरभताम्। सः विधिः अस्ति परमात्मनि समर्पणम्।
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्।
सम्यक् प्रकारेण अनुष्ठितस्य परधर्मापेक्षया गुणरहितः अपि स्वधर्मः परमहितकारकः अस्ति। स्वभावनियतं नाम स्वभावेन निर्धारितकृतं कर्म तत्कुर्वाणः मनुष्यः पापम् अर्थात् जन्ममरणं न प्राप्नोति। प्रायः साधकानां मानसे उच्चाटनं भवितुं लगति यत् अहं सेवामेव आजीवनं करिष्यामि, असौ तु ध्यानस्थोऽस्ति। सद्गुणानां कारणात् तस्य सम्मानमस्ति, त्वरितं तेनुकरणं कर्तुं प्रारभन्ते। श्रीकृष्णानुसारेण अनुकरणेन ईर्ष्या वा न किमपि मेलिष्यति। स्वस्वभावतः कर्मसम्पादनस्य क्षमतानुसारेण कर्म कृत्वैव कश्चित् परमसिद्धिं प्राप्नोति, त्यक्त्वा नहि।
सहजं कर्म कौन्तेय सदोषमपि न त्यजे सर्वारंभा हि दोषेण धूमेनाग्निरिवावृता।
कौन्तेय दोषयुक्तः नाम अल्पज्ञावस्थावान् अस्ति, तदा सिद्धमस्ति यत् साम्प्रतं दोषबाहुल्यं वर्तते। एवं दोषयुक्तः अपि सहजं कर्म अर्थात् स्वभावोत्पन्नं सहजं कर्म न त्यक्तव्यम्। कुतो हि यथा धूमाद् अग्निः दोषयुक्तः प्रतीयते, तथैव सर्वाणि कर्माणि येनापि केनापि दोषेण दूषितानि सन्ति। ब्राह्मणमेव कल्पयतु, कर्म तु करणीयं भवति, स्थितिः न अमिलत् तावत् दोषः अस्ति। विद्यमानप्रकृतेः आवरणं विद्यमानमस्ति, दोषाणाम् अवसानं तत्र भविष्यति यत्र ब्राह्मणश्रेणिकं कर्म अपि ब्रह्मणि विलीयते। तस्य प्राप्तिवतः किं लक्षणम्? यत्र कर्मणां प्रयोजनमेव न भवति।
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्य सिद्धिं परमां सन्न्यासेनाधिगच्छति।
सर्वत्र आसक्तिविहीनो बुद्धियुतः सर्वथेच्छारहितः जितान्तःकरणः पुरुषः सन्न्यासिनाम् अर्थात् सर्वस्वस्य त्यागावस्थायां परमनैष्कर्म्यस्य सिद्धिं प्राप्नोति। अत्र सन्न्यासः परमनैष्कर्म्यसिद्धिः इति पदद्वयं परस्परं पर्यायौ स्तः। अत्र साङ्ख्ययोगी तत्रैव प्राप्नोति यत्र तु निष्कामकर्मयोगी। इयम् उपलब्धिः उभयोः पान्थयोः समाना। साम्प्रतं परमनैष्कर्म्यसिद्धिं प्राप्तः पुरुषः यथा ब्रह्म प्राप्नोति, तस्य संक्षेपतः चित्रणं क्रियते।
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोधमे समासे नैव कौन्तेय निष्ठा ज्ञानस्य या परा।
कौन्तेय ज्ञानस्य या परानिष्ठास्ति पराकाष्ठास्ति, ताम् परमसिद्धिं प्राप्तः पुरुषः कथं प्राप्नोति तत्परमं पदम्? तद्विधिं संक्षेपतः त्वं मम द्वारा विद्धि। अग्रिमे श्लोके तमेव विधिं वर्णयति, ध्यानं देयम्।
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च। विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः।
अर्जुन विशेष रूपेण शुद्ध बुद्धि युक्तः एकांतस्य पवित्र देशस्य च सेवनकर्ता साधनायां यत् परिणामं अन्नं सहायकं भवेत् तावदेव आहारकर्ता मनसः वाण्या शरीरस्य च विजेता सम्यग् रूपेण दृढवैराग्यं प्राप्तः पुरुषः निरन्तरं ध्यानयोगे परायणः धारणायुक्तः वशीकृतान्तःकरणः शब्दादिकः पञ्चविषयं विहाय रागद्वेषम् उन्मूल्य तथा
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य निर्मम शान्तो ब्रह्म भूयाय कल्पते।
अहंकारं बलं गर्वं कामं क्रोधं बाह्यवस्तूनां आन्तरिकचिन्तनं संत्यज्य ममतारहितः शान्तान्तःकरणः पुरुषः परब्रह्मणा सह एकीभावं प्राप्तुं भवति योग्यः। अग्रे द्रष्टव्यम्।
ब्रह्मभूतः प्रसन्नात्मा न शोचति न कांक्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।
ब्रह्मणा सह एकीभावभवनस्य योग्यतावान् सः प्रसन्नचित्तः पुरुषः न तु कस्मैचित् वस्तुने शोचति न च कस्यापि वस्तुनः आकांक्षां करोति समस्तजीवेषु प्राप्तसमभावः सः भक्तेः पराकाष्ठायां वर्तते। भक्तिः स्वपरिणामस्य प्रदानस्य स्थितौ वर्तते यत्र ब्रह्मणि प्रवेशो मिलति। इदानीं
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्।
तत्परा भक्त्या सः मां तत्त्वतः सम्यक् जानाति। तत्तत्त्वं किमस्ति? अहं यादृक् प्रभावयुक्तोऽस्मि, अजरः, अमरः, शाश्वतश्चास्मि। यद् अलौकिकगुणधर्मवान् अस्मि तज्जानाति। मां च तत्त्वतः ज्ञात्वा त्वरितं मयि प्रवेशं प्राप्नोति। प्राप्तिकाले तु भगवान् पुरतः सन्नद्धः दृष्टिपथायते। प्राप्तेः क्षणानन्तरं स स्वात्मस्वरूपम् ईश्वरीयगुणधर्मयुक्तं प्राप्नोति। यदा आत्मा एव अजरः, अमरः, शाश्वतः, अव्यक्तः, सनातनश्चास्ति। द्वितीयाध्याये योगेश्वरेण श्रीकृष्णेन कथितम् आत्मैव सत्यमस्ति, सनातनः, अव्यक्तः, अमृतस्वरूपश्चास्ति। किन्तु एतद् विभूतियुक्तः आत्मा केवलं तत्त्वदर्शिभिः दृष्टः। इदानीं तत्र प्रश्नः स्वाभाविक आसीत् यत् तत्त्वदर्शिता अस्ति का? बहवः जनाः पञ्चतत्त्वानि तथा पञ्चविंशतितत्त्वानि तेषां बौद्धिकगणनां कर्तुं तत्परायन्ते। किन्तु विषयेस्मिन् श्रीकृष्णेन अष्टादशाध्याये निर्णयः दत्तः यत् परमतत्त्वमस्ति परमात्मा, यः तं जानाति स एव तत्त्वदर्शी। इदानीं चेत् भवेत् तत्त्वस्य कामना, परमात्मतत्त्वस्य च कामना वर्तते, तर्हि भजनं चिन्तनम् अपरिहार्यम्। अत्र 49 श्लोकतः 55 श्लोकं यावत् कृष्णेन चित्रितं यत् संन्यासमार्गे अपि कर्म करणीयम्। तेनोक्तं संन्यासेन अर्थात् संन्यासस्य माध्यमेन अर्थात् ज्ञानयोगद्वारेण कर्म भूयो भूयः कुर्वन् इच्छारहितः आसक्तिरहितः तथा जितशुद्धान्तःकरणवान् पुरुषः येन प्रकारेण नैष्कर्मस्य परमसिद्धिं लभते तत्संक्षेपतः वक्ष्यामि। अहङ्कारः, बलं, दर्पः, कामः, क्रोधः, मदः, मोहः इत्यादयः प्रकृतौ पतनकराः विकाराः। यदा ते सर्वथा शान्ताः भवन्ति, विवेकवैराग्यौ, शमदमौ, एकान्तसेवनं, ध्यानम् इत्यादयः ब्रह्मणि प्रवेशदायकाः योग्यताः यदा पूर्णतया परिपक्वायन्ते, तस्मिन् समये स ब्रह्म ज्ञातुं योग्यो भवति। तस्याः योग्यतायाः नाम पराभक्ति अस्ति। अनया योग्यतया स तत्त्वं बुध्यते। तत्त्वं च किमस्ति? मां जानाति, भगवान् अस्ति, याभिः विभूतिभिः युक्तोऽस्ति तं जानाति, मां च ज्ञात्वा तत्क्षणं मयि स्थितः भवति। अर्थात् ब्रह्म, तत्त्वम्, ईश्वरः, परमात्मा, आत्मा च परस्परं पर्यायवाचिनः सन्ति। एकस्य अवबोधेन सर्वेषां बोधो भवति। इयमेव परमसिद्धिः, परमगतिः, परमधाम अपि इदमेव। अतः गीतायाः दृढो निश्चयोऽस्ति यत् संन्यासः निष्कामकर्मयोगश्चोभयोः परिस्थित्योः परमनैष्कर्म्यसिद्धिं प्राप्तुं नियतकर्म नाम चिन्तनम् अनिवार्यमस्ति। इदानीं यावत्तु संन्यासिने भजनचिन्तनोपरि प्रेरणा प्रदत्ता, इदानीं समर्पणमुक्त्वा तां वार्तां निष्कामकर्मयोगिनेऽपि कथयति।
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्।
मयि विशेषरूपेण समाश्रितः पुरुषः सकलानि कर्माणि सदा कुर्वन् लेशमात्रमपि त्रुटिं न कृत्वा कर्म कुर्वन् मम कृपाप्रसादेन शाश्वतम् अविनाशिनं परमं पदं प्राप्नोति। कर्म तदेव अस्ति नियतं कर्म, यज्ञस्य प्रक्रिया। पूर्णयोगेश्वरं सद्गुरुं समाश्रित्य साधकः तस्य कृपाप्रसादेन झटिति प्राप्नोति। अतः तस्मै तत्प्राप्तये समर्पणम् आवश्यकमस्ति।
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव।
अतः पार्थ, सम्पूर्णानि कर्माणि यावन्ति त्वया क्रियन्ते मनसा मह्यं समर्प्य स्वबलेन नहि, प्रत्युत समर्पणं कृत्वा मयि परायणो भूत्वा बुद्धियोगं अर्थात् योगबुद्धेः अवलम्बनं कृत्वा मयि निरन्तरं चित्तं सन्निवेशय। योगः एक एव अस्ति यः सर्वथा दुःखानाम् अन्तकः, परमतत्त्वे च परमात्मनि प्रवेशं दापयिता अस्ति। तस्य योगस्य क्रिया अपि एका एव यज्ञस्य प्रक्रिया, या मनसा सहितेन्द्रियसंयमे श्वासे प्रश्वासे ध्यानादौ च निर्भरास्ति। यस्य परिणामः अपि एकः एव, यान्ति ब्रह्मसनातनम्। अत उपरि अग्रे कथयति।
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि, अथ चेत् त्वमहङ्कारान् न श्रोष्यसि विनङ्क्ष्यसि।
अनेनोक्तप्रकारेण मयि निरन्तरं चित्तसमर्पको भूत्वा त्वं मम कृपया मनसः इन्द्रियाणाञ्च सकलं दुःसाध्यं दुर्गम् अनायासेन तरिष्यसि। इन्द्रिह्नद्वारझरोखानाना तह तह सुरबैठे करिथाना, आवत देखहि विषय बयारी ते हठि देहि कपाट उधारी। इमानि दुर्जयानि दुर्गाणि सन्ति, मम कृपया त्वम् एतासां बाधानाम् अतिक्रमणं करिष्यसि। किन्तु यदि अहङ्कारकारणात् मम वचनं न श्रोष्यसि तदा विनङ्क्षसि, परमार्थतः भ्रष्टो भविष्यसि। पुनरत्रैव बलं ददाति।
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे, मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्षति।
चेत् त्वम् अहङ्कारस्य आश्रयं नीत्वा इत्थं मन्यसे यत् युद्धं नहि करिष्यामि, तदा ते अयं निश्चयः सर्वथा मिथ्यास्ति। कुतो हि तव स्वभावः त्वां बलात् युद्धे नियोजयिष्यति।
स्वभावजेन कौन्तेय निबद्धस्वेन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यस्य वशोऽपि तत्।
कौन्तेय, मोहस्य वशीभूतः त्वं यत्कर्म कर्तुं नेच्छसि तदपि स्वस्वभावात् उत्पन्न कर्मबन्धनबद्धः परवशो भूत्वा करिष्यसि। प्रकृतेः सङ्घर्षतः अपलायनस्य तव क्षत्रियश्रेण्याः स्वभावः त्वां बलात् कर्मणि नियोक्ष्यति। प्रश्नः अभवत्पूर्णः। साम्प्रतं स ईश्वरः कुत्र वर्तते? अत उपरि कथयति।
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति, भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।
अर्जुन, स ईश्वरः सम्पूर्णभूतप्राणीनां हृदयदेशे निवासं करोति। एतावान् सन्निकटस्थः तर्हि जनाः कथं न जानन्ति? मायारूपयन्त्रे समारूढाः भूत्वा सर्वे जनाः भ्रमवशात् चक्रवत् परिभ्रमन्ति, अत एव न हि जानन्ति यन्त्रमिदं बहु बाधकं यत् वारं वारं नश्वर शरीरेषु भ्रामयति। तर्हि कस्य शरणं ग्राह्यम्?
तमेव शरणं गच्छ, सर्वभावेन भारत, तत्प्रसादात् परां शान्तिम्, स्थानं प्राप्स्यसि शाश्वतम्।
अत एव भारत, सम्पूर्णभावेन तस्य ईश्वरस्य अर्थात् यो हृदयदेशे स्थितः अस्ति अनन्यशरणं प्राप्तं कुरु। तस्य कृपाप्रसादेन त्वं परमशान्तिं शाश्वतं परमधाम च लप्स्यसि। अतः ध्यानं करणीयमस्ति चेत् तदा हृदयदेशे ध्यानं कार्यम्। एतद् ज्ञात्वापि मन्दिरे मस्जिदे चर्चे तथा अन्यत्र अन्वेषणं समयस्य दुरुपयोगः अस्ति। आम्, नास्ति अवबोधः तावत् स्वाभाविकः अस्ति मन्दिरादिगमनम्। ईश्वरस्य निवासस्थानं हृदयमस्ति। भागवतस्य चतुश्लोक्याः गीतायाः सारांशः अपि अयमेव यत् अहं सर्वत्रास्मि, किन्तु मिलामि हृदयदेशे ध्यानात्।
इति ते ज्ञानमाख्यातम्, गुह्याद् गुह्यतरं मया, विमृश्यैतदशेषेण, यथेच्छसि तथा कुरु।
अनेन प्रकारेण गोपनीयात् अपि अतिगोपनीयं ज्ञानं मया त्वदर्थं कथितम्। अनेन विधिना सम्पूर्णरूपेण विचारय, पुनस्त्वं यथेच्छसि तथा कुरु। सत्यमेतत्, शोधस्थलमेतत्, प्राप्तिस्थलमेतत्, किन्तु हृदयस्थितः ईश्वरः न दृश्यते, अतः उपायः वर्ण्यते।
सर्वगुह्यतमं भूयः, शृणु मे परमं वचः, इष्टोऽसि मे दृढमिति, ततो वक्षामि ते हितम्।
अर्जुन, सम्पूर्णगोपनीयात् अपि अतिगोपनीयं रहस्यं, रहस्ययुक्तं मम वचनं त्वं पुनः शृणु। अर्थात् त्वदर्थं पूर्वं कथितं यद्यपि पुनरपि शृणु। साधकस्य कृते इष्टः सदैवोपस्थितः, कुतो हि त्वं मम परमप्रियः। एतस्मात् इदं परमहितकारकं वचनं त्वां पुनः वक्ष्यामि। तत् किमस्ति?
मन्मना भव मद्भक्तो, मद्याजी मां नमस्कुरु, मामे वैश्यसि सत्यन्ते, प्रतिजाने प्रियोऽसि मे।
अर्जुन, त्वं मयि एव अनन्यमनाः भव, मम अनन्यभक्तः भव, मां प्रति श्रद्धायुतः भव, मयि समर्पणावसरे अश्रुपातः भवेत्, मामेव नमनं कुरु, एवं विधिना त्वं मां प्राप्स्यसि। इदं सर्वं त्वां सत्यप्रतिज्ञया वदामि, कुतो हि त्वं मम अत्यन्तप्रियः। पूर्वमुक्तं तेन ईश्वरः हृदयदेशे वसति, तस्य शरणं गच्छ। अत्र तु कथयति कृष्णः, मम शरणम् आगच्छ, इदम् अतीव गोपनीयरहस्ययुक्तं वचनं शृणु, यन्मम शरणागतो भव। वस्तुतः योगेश्वरः श्रीकृष्णः किं वक्तुं वाञ्छति? एतदेव यत् साधकस्य कृते सद्गुरोः शरणं नितान्तम् आवश्यकमस्ति। श्रीकृष्णः आसीत् एकः पूर्णयोगेश्वरः। साम्प्रतं समर्पणस्य विधिं वर्णयति।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज, अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।
संपूर्ण धर्मान् परित्यज्य, अर्थात् अहं ब्राह्मणश्रेण्याः कर्तास्मि, शूद्रश्रेण्याः वा क्षत्रियोऽस्मि वैश्योऽस्मि इति विचारं त्यक्त्वा केवलम् एकं माम् अनन्यशरणं प्राप्नुहि, अहं त्वां सर्वपापेभ्यः मोक्षयिष्यामि, त्वं शोकं मा कुरु। पूर्वोक्तब्राह्मणक्षत्रियादिवर्णस्य विचारं मा कुरु। यदस्मिन् कर्मपथे कस्य स्तरस्य अहमस्मि, यः अनन्यभावेन शरणागतः भवति, इष्टात् अतिरिक्तं न अन्यं कमपि पश्यति, तस्य क्रमशः वर्णपरिवर्तनस्य, उत्थानस्य तथा पूर्णपापेभ्यः निवृत्तेः अर्थात् मोक्षस्य सर्वं दायित्वम् इष्टः नाम सद्गुरुः स्वयं स्वहस्ते आदधाति। प्रत्येकं महापुरुषैः इदम् एव उक्तम्। शास्त्रं यदा लेखितुम् आरभ्यते तदा लगति यदि इदं सर्वस्य हिताय अस्ति, किन्तु वस्तुतः श्रद्धावतां कृते मात्रम् अस्ति। अर्जुनः आसीद् अधिकारी, तस्मादेव सबलम् उपादिदेश। सम्प्रति योगेश्वरः स्वयं निर्णयं ददाति यत् अस्य अधिकारिणः के।
इदं ते नातपस्काय नाभक्ताय कदाचन न चाशुश्रूषवे वाच्यम् न च मां योऽभ्यसूयति।
अर्जुन, अनेन प्रकारेण तव हिताय कथितं गीतोपदेशं कस्मिंश्चिदपि काले भ्रान्तो भूत्वापि तपोविरहिताय मनुष्याय न कथनीयम्, न भक्तिरहिताय कथनीयम्, न श्रवणेच्छारहिताय कथनीयम्। यश्च मम निन्दां करोति अयं दोषः, सः दोषः अनेन प्रकारेण अलीकमालोचनां करोति, तं प्रत्यपि न कथनीयम्। महापुरुषः तु आसीदेव यस्य समक्षं स्तुतिकर्तृभिः सहैव कतिपयनिन्दकाः अपि अभविष्यन्। एतेभ्यः तु न कथनीयम्। किन्तु प्रश्नः स्वाभाविकः अस्ति यत् सम्प्रति कस्मै कथनीयम्। अत्र द्रष्टव्यम्
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः।
यो मनुष्यः मयि परमप्रेम विधाय इमं परमरहस्ययुक्तं गीतोपदेशं मम भक्तान् कथयिष्यति सः निःसन्देहं मां प्राप्स्यति, अर्थात् स भक्तः मां प्राप्तं करिष्यति। यः श्रोष्यति कुतो हि उपदेशं सम्यग् आकर्ण्य हृदयङ्गमं करिष्यति, तदा तदुपरि चलिष्यति तथा पारं प्राप्तं करिष्यति। सम्प्रति तस्य उपदेशकर्तुः कृते कथयति।
न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मान् अन्यः प्रियतरो भुवि।
ततः अधिकं न मम अतिशयप्रियः कार्यकर्ता मनुष्येषु कश्चित् न च ततोऽधिकं मामत्यन्तप्रियः पृथिव्यामपरः कोऽपि भविष्यति। कस्मात्? यः मम भक्तेषु ममोपदेशं करिष्यति, तान् तत्पथे चालयिष्यति। कुतो हि कल्याणस्य अयम् एव एक स्रोतः राजमार्गः अस्ति। अग्रे पश्यतु।
अध्येष्यते च य इमम् धर्म्यं संवादमावयोः ज्ञानयज्ञेन तेनाहम् इष्टस्यामिति मे मतिः।
यः पुरुषः इमम् आवयोः धर्ममयं संवादम् अध्येष्यते नाम सम्यग्रूपेण मननं करिष्यति, तद्द्वारेण अहं ज्ञानयज्ञेन पूजितो भविष्यामि। अर्थात् एतादृशः यज्ञः यस्य परिणामः ज्ञानमस्ति, यस्य स्वरूपं पूर्वं वर्णितं, यस्य तात्पर्यमस्ति साक्षात्कारेण सह प्राप्तावबोधः इति निश्चितं मतं मम।
श्रद्धावाननसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणा।
यः पुरुषः सश्रद्धम् ईर्षारहितः केवलं श्रोष्यति सोऽपि पापमुक्तः भूत्वा उत्तमकर्मकर्तॄणां श्रेष्ठं लोकं लप्स्यते। अर्थात् पूर्वं पारं न प्राप्नुयात् तदा श्रवणं मात्रं कुर्यात्, तदा अपि उत्तमलोकप्राप्तिः। कुतो हि स चित्ते तान् उपदेशान् गृहीत्वा धारयति। अत्र सप्तषष्ठिश्लोकतः एकसप्ततिश्लोकं यावत् पञ्चशु श्लोकेषु भगवान् कृष्णः एतदेवोक्तवान् यत् गीतायाः उपदेशः अनधिकारिभ्यः न देयः, किन्तु ये श्रद्धावन्तः तेभ्यः अवश्यं वर्णनीयः। यः श्रोष्यति स भक्तः मां प्राप्स्यति। कुतो हि अतीव गोपनीयां कथां श्रुत्वा पुरुषः चलितुं लगति। यो भक्तान् कथयिष्यति ततः अधिकः प्रियः वक्ता नास्ति कोऽपि मम। यः अध्ययनं करिष्यति तद्वारेण ज्ञानयज्ञतः पूजितो भविष्यामि, यस्य परिणामः ज्ञानमस्ति। यः गीतानुसारेण कर्म कर्तुम् असमर्थः किन्तु श्रद्धया आकर्णयिष्यति सोऽपि पुण्यश्लोकं गमिष्यति। अनेन प्रकारेण भगवान् श्रीकृष्णः गीतायाः कथनस्य, श्रवणस्य, अध्ययनस्य च फलं वर्णितवान्। प्रश्नः पूर्णो जातः। अन्ततः कृष्णः अर्जुनं पृच्छति,
कच्चिदे तच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा, कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय।
पार्थ, किमिदं मदीयं वचनं त्वम् एकाग्रचित्तो भूत्वा श्रुतवान्? किं तवाज्ञानात् उत्पन्नः मोहः अभवन्नष्टः? अत उपरि अर्जुनः वदति। अर्जुन उवाच,
नष्टो मोह स्मृतिर्लब्धा त्वत्प्रसादान् मया च्युत, स्थितोऽस्मि गतसन्देह करिष्ये वचनं तव।
अच्युत, भवतः कृपया मम मोहो विनष्टो भवत्। अहं स्मृतिं प्राप्तवान् यद् रहस्यमयं ज्ञानं मनुः स्मृतिपरम्परया चालितवान् तज्ज्ञानम् अर्जुनः प्राप्तवान्। सम्प्रत्यहं संशयरहितः स्थितोऽस्मि। भवतः आज्ञायाश्च पालनं करिष्यामि। यदा हि सैन्यनिरीक्षणावसरे सेनयोरुभयोर्मध्ये स्वजनान् दृष्ट्वा अर्जुनः व्याकुलः अभवत्। सः निवेदनं कृतवान् यत् गोविन्द, स्वजनान् हत्वा अहं कथं सुखी भविष्यामि? अनेन युद्धेन शाश्वतः कुलधर्मः नौक्षति, पिण्डोदकक्रिया लुप्ता भविष्यति, वर्णसंकरोत्पत्तिः भविता। वयं सज्ञानाः भूत्वापि पापं कर्तुं समुद्यताः स्म, कथं नैतस्माद् रक्षणाद् उपायः विधेयः? शस्त्रधारिणः इमे कौरवाः शस्त्ररहितं मां घ्नन्तु, तन्मरणं श्रेयस्करम्। गोविन्द, नाहं युद्धं करिष्यामि इति कथयन् रथस्य पृष्ठभागे समुपविष्टः। अनेन प्रकारेण गीतायाम् अर्जुनः योगेश्वरश्रीकृष्णस्य समक्षं प्रश्नानां परिप्रश्नानां च शृङ्खलाम् उपस्थापितवान्, यथा द्वितीयाध्यायस्य सप्तमे श्लोके तत्साधनं मां प्रति कथय येनाहं परमश्रेयः लभै। द्वितीये अध्याये चतुर्पञ्चाशत् श्लोके स्थितप्रज्ञस्य महापुरुषस्य लक्षणानि कानि। तृतीयाध्याये प्रथमश्लोके यदा भवतः दृष्टौ ज्ञानयोगः श्रेष्ठः अस्ति तदा मां भयंकरे कर्मणि किमर्थं योजयति। तथैव तृतीयाध्याये षट्त्रिंशत् श्लोके मनुष्यः अनिच्छन्नपि कस्य प्रेरणया पापाचरणं करोति। तथा च चतुर्थाध्याये चतुर्थश्लोके भवतः जन्म तु इदानीम् अभवत्, सूर्यस्य जन्म अतीव पुरातनमस्ति, तदा अहं कथं मानयामि यत् कल्पादौ योगमिमं भवान् सूर्याय कथितवान् आसीत्। पञ्चमे अध्याये प्रथमश्लोके पृच्छति सः कदाचित् भवान् सन्न्यासस्य प्रशंसां करोति, कदाचित् तु निष्कामकर्मणः। एतयोः एकतरं निश्चीय कथयतु येन अहं परमश्रेयः लभै। षष्ठाध्याये पञ्चत्रिंशत् श्लोके पृच्छति मनश्चञ्चलमस्ति, पुनः शिथिलप्रयत्नः श्रद्धावान् पुरुषः भवन्तं न प्राप्य कां गतिं गच्छति। अष्टमाध्याये प्रथमे तथा द्वितीये श्लोके सपृच्छति गोविन्द भवता यस्य वर्णनं कृतं तद् ब्रह्म किमस्ति, तद् अध्यात्म किमस्ति, अधिदैवम् अधिभूतञ्च किमस्ति, अस्मिन् शरीरे अधियज्ञः कोऽस्ति, तत् कर्म किम्, अन्तसमये भवान् कथं ज्ञातुं शक्यते इति सप्तप्रश्नाः कृताः। दशमाध्याये सप्तदश श्लोके अर्जुनः जिज्ञासां कृतवान् निरन्तरं चिन्तनं कुर्वन् अहं भवन्तं केन केन भावेन स्मरामि। एकादशाध्याये चतुर्थश्लोके सपृच्छति यासां विभूतीनां भवता वर्णनं कृतं ताः सर्वाः प्रत्यक्षमहं द्रष्टुमिच्छामि। द्वादशाध्याये प्रथमश्लोके सपृच्छति यः अनन्यश्रद्धया संलग्नः सन् भक्तजनः सम्यग्रूपेण भवन्तं भजते, यश्च अक्षरम् अव्यक्तम् उपास्ते, उभयोः उत्तमः योगवेत्ता कः। चतुर्दशाध्याये एकविंशतितमे श्लोके सपृच्छति त्रिभिः गुणैः अतीतः पुरुषः कैर्लक्षणैर्युक्तो भवति, तथा मनुष्यः केनोपायेन गुणत्रयम् अतिशेते। सप्तदशाध्याये प्रथमे श्लोके सपृच्छति यो मनुष्यः उपर्युक्तशास्त्रविधिं विहाय किन्तु सश्रद्धः भूत्वा यजते तस्य का गतिर्भवति। अष्टादशाध्याये प्रथमश्लोके सपृच्छति महाबाहो अहं योगसन्न्यासयोर्यथार्थस्वरूपं पृथक् पृथक् ज्ञातुमिच्छामि। इत्थम् अर्जुनः प्रश्नान् अकरोत् यत् स न कर्तुं शक्तः तद्गोपनीयं रहस्यं भगवान् स्वयं दर्शितवान्। प्रश्नानां समाधानोत्तरं स प्रश्नात् विरतः अभवत्, कथितवान् च गोविन्द सम्प्रति अहं भवतः आज्ञापालनं करिष्यामि। वस्तुतः इमे प्रश्नाः मानवमात्रकृते सन्ति, एतेषां प्रश्नानां समाधानं विना कोऽपि साधकः श्रेयसः मार्गे न भवितुं शक्नोति अग्रेसरः। अतः सद्गुरोः आदेशपालनकरणाय श्रेयसः पथि अग्रेसराय सम्पूर्णगीतायाः श्रवणम् अत्यावश्यकम्। अर्जुनस्य समाधानम् अभवत्। इत्थं योगेश्वरश्रीकृष्णस्य श्रीमुखान्निसृतायाः वाण्याः उपसंहारो जातः। अतः उपरि संजय उवाच, एकादशाध्याये विराट स्वरूप दर्शनानंतरं योगेश्वरः श्रीकृष्णः उक्तवान्, अर्जुन अनन्य भक्ति द्वारेण अहम् अनेन प्रकारेण दर्शनाय अर्थात् यथा त्वं दृष्टवान् तत्वतः ज्ञानाय तथा प्रवेशकरणाय सुलभोऽस्मि। एकादशाध्याये चतुर्पञ्चाशत् श्लोके कथितम्। अनेन प्रकारेण दिदृक्षवः साक्षात् मम स्वरूपं प्राप्नुवन्ति। अत्र चेत् इदानीम् अर्जुनं पृच्छति कृष्णः, किं तव मोहः नष्टो जातः? अर्जुनेन कथितं, नष्टो जातः, अहं स्वस्मृतिं प्राप्तोऽस्मि, भवान् यत् कथयति तदेव करिष्यामि। दर्शनेनैव अर्जुन इव मुक्तेन भवितव्यम् उचितम् आसीत्। वस्तुतः अर्जुनस्य कृते यत् भाव्यमासीत् तद् अभवत्, किन्तु शास्त्रं भविष्ये आगन्तुकानां पुरुषाणां कृते भवति, तस्योपयोगः सर्वस्य हेतवे एव। संजय उवाच,
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिममश्रौषम् अद्भुतं रोमहर्षणम्।
अनेन प्रकारेण अहं वासुदेवस्य महात्मनः अर्जुनस्य च तयोः एतद् विलक्षणं लोमहर्षकं संवादं श्रुतवान्। अर्थात् अर्जुनः एकः महात्मास्ति, अस्ति योगी साधकश्च, न तु कश्चित् धनुर्धरः यः हन्तुमस्ति समुद्यतः। अतः अर्जुनः अपि महात्मास्ति। भवती श्रवणक्षमता कुतः समायाता? अग्रे वदति,
व्यास प्रसादाच्छ्रितवान् एतद् गुह्यमहं परम्, योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्।
श्रीव्यासस्य कृपया तद्द्वारा प्रदत्तदृष्ट्या मया परमगोपनीयं योगं साक्षात् कृष्णेन कथयन्तम् अश्रौषम्। श्रीकृष्णं योगेश्वरं मनुते संजयः, यः स्वयं योगी भवेत् अपरेभ्यः अपि योगप्रदानस्य सामर्थ्यं धारयेत् स योगेश्वरोऽस्ति।
राजन् संस्मृत्य संस्मृत्य सौवादमिममद्भुतम्, केशवार्जुनयोः पुण्यम् भिष्यामि च मुहुर्मुहुः।
राजन् केशवार्जुनयोः इदं परमं कल्याणकारकम् अद्भुतं संवादं पुनः पुनः स्मृत्वा भूयो भूयोऽहं प्रसीदामि। अतः संवादोऽयं सदैव स्मरणीयः, अनया स्मृत्या प्रसन्नेन स्थातव्यम्। सम्प्रति तस्य स्वरूपं स्मृत्वा संजयः कथयति,
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः, विस्मयो मे महान् राजन् ऋष्यामि च पुनः पुनः।
राजन् हरेः नाम यः शुभाशुभं सर्वमपहृत्य स्वयं अवशिष्यते तस्य हरेः अत्यद्भुतं रूपं पुनः पुनः स्मृत्वा मम मनसि कौतूहलमुदेति वारं वारं च हृष्यामि इष्टस्य स्वरूपं वारं वारं स्मरणीयं वस्तु अस्ति। अन्ते संजयः निर्णयं ददाति।
यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिः ध्रुवा नीतिर्मतिर्मम तत्र श्रीर्विजयो भूतिः ध्रुवा नीतिर्मतिर्मम।
राजन, यत्र योगेश्वरः श्रीकृष्णः धनुर्धरः अर्जुनः अर्थात् ध्यानमेव धनुः अस्ति, इन्द्रियाणां दृढतैव गाण्डिवम् अस्ति अर्थात् स्थिरतया सह ध्यानधारकः महात्मा अर्जुनः यत्र अस्ति तत्रैव श्रीः ऐश्वर्यं विजयः यस्य पृष्ठे पराजयोऽपि नास्ति। ईश्वरीया विभूतिः चले संसारे च अचलतया स्थातुं शक्या नीतिः अस्ति इति मम मतम्। अद्य तु धनुर्धरः नास्ति अर्जुनः, इयं नीतिः विजयविभूतिः च अर्जुनं यावत् आसीत् सीमिता, इयं स्थितिः तात्कालिकी एव, इयं तु द्वापारे अपि समाप्तिं गता। किन्तु नैतत् तथ्यं, योगेश्वरेणोक्तं यदहं सर्वस्य हृदयदेशे निवसामि भवतः हृदयदेशे अपि असौ एव अनुरागः एव अस्ति अर्जुनः। अनुरागः भवतः अन्तःकरणस्य इष्टाभिमुखं संलग्नतायाः संज्ञा। यदि एवम् अनुरागः अस्ति भवतः हृदयान्तराले तदा तु सर्वत्र विजयः एव। अचलां स्थितिं दापयित्री नीतिः अपि सर्वदा स्थास्यति, न तु कदाचित्। यावत् प्राणिनः स्थास्यन्ति तावत् सर्वेषां हृदि परमात्मनः निवासः सुनिश्चितः। विकलः जीवात्मा तं परमात्मानं प्राप्तुं बहु लालायितो भविष्यति, तेषु यस्य तम् उपलब्धुं भविष्यति हृदयदेशे प्रबलेच्छा तदेव अर्जुनस्य श्रेण्यां प्रवेक्षति। कुतो हि अनुरागः एव अस्ति अर्जुनः। अतो हि मानवाः सर्वे भवितुं शक्नुवन्ति अस्य प्रत्याशिनः। निष्कर्षः: अयम् अध्यायः गीतायाः समापनस्य। आरम्भे एव आसीत् अर्जुनस्य प्रश्नः यत् प्रभो, अहं संन्यासत्यागयोः भेदं स्वरूपञ्च ज्ञातुमीहे। योगेश्वरेण अपि अस्य प्रश्नस्य उत्तररूपेण प्रचलितानि चत्वारि मतानि वर्णितानि। एतेषु एकं मतं यथार्थं वास्तवं सत्यञ्चाप्यासि, तेनानुमोदितं तुल्यं मतं तेन समुपवर्णितं यत् यज्ञः दानं तपः च न कश्चिदपि काले त्यक्तुमर्हाः, यज्ञादयः मनीषिणः अपि पावयन्ति। इमानि त्रीणि सन्धारयन् एतेषां विरोधीनां विकाराणां परित्यागः एव वास्तविकः त्यागः अस्ति। अयं सात्विकत्यागः कथ्यते। फलेच्छया सह कृतः त्यागः राजसत्यागः, मोहवशश्च नियतकर्मणः एव त्यागकरणं तामसस्त्यागः समुच्यते। संन्यासश्च त्यागस्य चरमोत्कर्षावस्थास्ति, नियतं कर्म ध्यानजनितं सुखञ्च सात्विकं स्मृतम्, इन्द्रियाणां विषयाणाञ्च भोगः राजसः कथ्यते, तृप्तिदायकश्चान्नस्योत्पत्तितो रहितः दुःखकरं सुखं तामसं कथ्यते। मानवानां द्वारा शास्त्रानुकूलं प्रतिकूलञ्च कार्यसम्पादने पञ्चकारणानि सन्ति, कर्तुः नाम मनसः पृथक् पृथक् करणानि, यथा माध्यमेन कार्यं सम्पद्यते शुभफलप्राप्तये, विवेकः वैराग्यं शमः दमः पृथक् पृथक् करणानि सन्ति, अशुभार्थं कर्तुः मनसः कामः क्रोधः रागः द्वेषः इत्यादीनि करणानि भवन्ति, नानाप्रकारिकाः इच्छाः इच्छाः अनन्ताः सन्ति, सकलेच्छाः न पूरयितुं शक्नुवन्ति, केवलं सेच्छा पूरयति यया सह आधारः समुपलभ्यते। चतुर्थं कारणमस्ति आधारः नाम साधनम्। पञ्चमञ्च कारणं दैवं, प्रारब्धः संस्कारः वा। प्रत्येकं कार्यस्य सम्पादनाय इमानि भवन्ति पञ्चकारणानि। पुनरपि यः कैवल्यस्वरूपं परमात्मानं कर्ता मन्यते, स मूढबुद्धिः यथार्थं नावगच्छति, अर्थात् नास्ति भगवान् कर्ता। यदा तु पूर्वं वर्णितमस्ति यत् अर्जुन त्वं निमित्तमात्रो भूत्वा सन्नद्धो भव, कर्ता धर्ता अहमेवास्मि, अन्ततः तस्य महापुरुषस्य कः आशयः। वस्तुतः प्रकृतिपुरुषयोर्मध्ये आकर्षणस्य सीमा वर्तते। यावन्मनुष्यः प्रकृतौ विचरति तावन्माया प्रेरयति, यदा च सः उपरि उत्थाय इष्टे समर्पितो भवति, स चेष्टः यदा हृदयदेशस्थः रथवाहकः भवति तदा भगवान् कर्ता। अस्मिन्नेव स्तरे आसीत् अर्जुनः, सञ्जयः अपि आसीत्। सर्वस्य च कृते अस्मिन् लक्ष्ये गमनस्य विधानम् अस्ति। अतः इतो भगवान् प्रेरयति, पूर्णज्ञातुः महापुरुषस्य ज्ञानस्य विधेः ज्ञेयपरमात्मनश्चेति त्रयाणां संयोगतः कर्मणः प्रेरणा मिलति। अत एव कस्यचित् अनुभविनः महापुरुषस्य नाम सद्गुरोः सान्निध्यं सम्प्राप्य अवबोधस्य प्रयासः करणीयः। वर्णव्यवस्थायाः सम्बन्धे चतुर्थवारं प्रश्नं सन्धारयन् योगेश्वरेण कृष्णेन विवेचितम्, इन्द्रियाणां दमनं मनसः शमनम्, एकाग्रता शरीरं वाणी मनः च इष्टानुरूपं सन्तापनम्, ईश्वरीयज्ञानस्य सञ्चारः, ईश्वरीयनिर्देशनोपरिवर्तनस्य क्षमता इत्यादि योग्यताः ब्रह्मणि प्रवेशदायिकाः सन्ति, तथा च उक्तयोग्यतायुक्तः ब्राह्मणश्रेणिकः तस्य ब्राह्मणस्य कर्माणि सन्ति। शौर्यं पृष्ठाभिमुखम् अपलायनस्य स्वभावः, सर्वभावेषु स्वामित्वस्थापनं, कर्मणि प्रवर्तनस्य क्षमता क्षत्रियश्रेणिकस्य पुरुषस्य कर्म अस्ति, इन्द्रियाणां संरक्षणं आत्मिकसम्पत्तेः संवर्धनम् इत्यादि वैश्यश्रेणिकपुरुषस्य कर्म अस्ति, परिचर्या च शूद्रश्रेणिकस्य कर्म अस्ति। शूद्रस्य अर्थः अस्ति अल्पज्ञः, यो अल्पज्ञः साधकः नियतकर्मानुसन्धाने घण्टाद्वयं स्थित्वापि दशमिनटं यावदपि साधनं स्वपक्षे न संदधाति, शरीरं तु अवश्यमेव उपविष्टमस्ति, किन्तु यस्य मनसः स्थैर्यम् अपेक्षते स पवनमपि पराजयते। एतादृशस्य साधकस्य कथं भवेत् कल्याणम्? तस्यास्ति कर्तव्यं यत् सः स्वतः समुन्नतावस्थावतां सेवां कुर्यात् अथवा सद्गुरोः शरणम्। शनैश्शनैः तस्मिन्नपि संस्काराणां सृजनं भवति, गतिः भविष्यति अनुकूला। अतः अस्य अल्पज्ञस्य सेवातः कर्मारम्भः भविष्यति। कर्म तु एकमेवास्ति, नियतकर्मचिन्तनम्। तस्य कर्तुः चतस्रः कोटयः सन्ति, अत्युत्तमः, उत्तमः, मध्यमः, निकृष्टश्च। एष एव क्रमशः ब्राह्मणक्षत्रियवैश्यशूद्राः सन्ति। मनुष्यमण्डलं नहि, प्रत्युत गुणानां माध्यमेन कर्माणि भागचतुष्टये विभाजितानि सन्ति। गीतोक्तः वर्णः एतावान् अस्ति। तत्त्वं सुस्पष्टयन् तेनोक्तं यत् अर्जुन, तस्य परमसिद्धेः विधिं वक्ष्यामि, यो विधिः ज्ञानस्य पराकाष्ठा कथ्यते। विवेकः, वैराग्यं, शमः, दमः, अनवरतचिन्तनं, ध्यानस्य प्रवृत्तिः च इत्यादयः ब्रह्मणि प्रवेशदायिकाः समस्ताः योग्यताः यदा भवन्ति परिपक्वाः, कामः, क्रोधः, मोहः, रागः, द्वेषादयः बलात् प्रकृतौ प्रेरिताः प्रवृत्तयः यदा पूर्णरूपेण शान्ताः भवन्ति, तस्मिन् समये व्यक्तिः असौ ब्रह्मज्ञानयोग्यः भवति। तस्याः एव योग्यतायाः नाम पराभक्तिः अस्ति। पराभक्तिद्वारेणैव स तत्त्वम् अवगच्छति। किमस्ति तत् तत्त्वम्? अवदत् यद् अहमस्मि, यद् विभूतियुक्तोऽस्मि, तत् सर्वं जानाति। अर्थात् यदस्ति परमात्मा, अव्यक्तः, शाश्वतः, अपरिवर्तनशीलः, यद् अलौकिकगुणधर्मसम्पन्नोऽस्ति तज्जानाति, ज्ञात्वा च तत्क्षणं मयि भवति स्थितः। अतः तत्त्वमस्ति परमतत्त्वं, न तु पञ्चतत्त्वानि, पञ्चविंशतितत्त्वानि वा। प्राप्त्या सह आत्मापि तस्मिन् स्वरूपे भवति अवस्थितः, तद्गुणधर्मयुक्तो भवति। ईश्वरस्य निवासं वर्णयन् सन् योगेश्वरेण कृष्णेन उदीरितम् अर्जुन, स ईश्वरः समस्तभूतानां हृदयदेशे निवसति, किन्तु मायारूपयन्त्रम् आरुह्य जनाः इतस्ततः परिभ्रमन्ति, अत एव न बुध्यन्ते। अतः अर्जुन, त्वं हृदयस्थितस्य तस्य ईश्वरस्य शरणं व्रज। इतः अपि गोपनीयम् अपरमेकं रहस्यं वरिवर्ति यत् सर्वेषां धर्माणां चिन्तां विहाय एकं मम शरणम् आगच्छ, त्वं मां प्राप्स्यसि। इदं रहस्यम् अनधिकारिणे न कथनीयम्, येन सन्ति भक्ताः तानपि च न ज्ञापनीयम्, किन्तु ये सन्ति भक्ताः तान् अवश्यमेव वदेत्। भक्तात् गोपनं न कार्यम्, कृते सति गोपने तस्य कल्याणं कथं भविष्यति? अन्ततः गत्वा योगेश्वरः कृष्णः अर्जुनम् अपृच्छत्, अर्जुन, मया यद् उदीरितं तत् सर्वम् अपि त्वं श्रुतवान्, ज्ञातवान् च? तव मोहः नष्टः अभवत् वानवा? अर्जुनः कथितवान्, भगवन्, मम मोहः सर्वथा नष्टः, अहम् स्वस्मृतिम् प्राप्तोऽस्मि, यदुच्यते भवता तदेव सत्यम्, अहमपि तदेव करिष्यामि। सञ्जयः येन श्रीकृष्णार्जुनयोः संवादः सम्यक् अश्रावी, सः स्वनिर्णयम् ददाति यत् श्रीकृष्णः महायोगेश्वरः अर्जुनः च एकः महात्मा। तयोः संवादमाकर्ण्य भूयो भूयः कृतस्मरणः सः अतीव प्रमुदितः, अतः अनयोः संवादः सर्वदा स्मर्तव्यः। तं हरिरूपम् अपि स्मृत्वा भूयो भूयो हर्षति, अतः भूयो भूयः स्वरूपस्य स्मरणं करणीयं, ध्यानञ्च निरन्तरं विदधीत। यत्र योगेश्वरः श्रीकृष्णः राजते, यत्र च महात्मार्जुनः शोभते, तत्रैव श्रीः विजयः विभूतिः ध्रुवनीतिश्च तत्रैव विलसति। सृष्टेः नीतयः अद्य वर्तन्ते, श्वः न भविष्यन्ति। ध्रुवं तु एकमेव, परमात्मा अस्ति। तस्मिन् परमात्मनि प्रवेशदायिका नीतिः, ध्रुवानीतिः च कथ्यते। श्रीकृष्णम् अर्जुनञ्च द्वापारकालोद्भवं व्यक्तिविशेषम् इति रूपेण स्वीक्रियते, तदा न अद्य अर्जुनः न च श्रीकृष्णः भवते। न विजयः प्राप्तव्यः न च विभूतिः प्राप्तव्या, तदा तु भवतः कृते गीता इयम् अपि निष्प्रयोजना। किन्तु नहि, श्रीकृष्णः आसीत् एकः योगी, अनुरागपूरितहृदयवान् महात्मा एव आसीत् अर्जुनः अपि। इमौ सदैव स्तः स्थास्यतश्च। श्रीकृष्णः स्वपरिचयं ददानः कथितवान् यत् अहम् अव्यक्तः, किन्तु यं भावं प्राप्तोऽस्मि स ईश्वरः सर्वेषां हृदयदेशे निवसति, स सदैवास्ति स्थास्यति च। तस्य शरणं ग्राह्यं सर्वैः। शरणगः मनुष्यः महात्मा अस्ति, अनुरागी अस्ति, अनुरागश्च अर्जुनः अस्ति। एतदर्थं कस्यचित् स्थितप्रज्ञस्य महापुरुषस्य शरणम् अनिवार्यम्। कुतो हि अस्य सः एव प्रेरकः अस्ति। अस्मिन् अध्याये सन्न्यासस्य स्वरूपं चित्रितं यत् सर्वस्वस्य न्यासः नाम त्यागः, सन्न्यासः समुच्यते। केवलं सन्न्यासिनः कृते दण्डः गैरिकवाससः धारणमेव नास्ति सन्न्यासः, प्रत्युत एभिः सह एकान्तसेवनं कुर्वन् सन् नियतकर्मणि स्वशक्तिं सम्बुद्ध्य समर्पणेन साकं सततं प्रयत्नं भवति अपरिहार्यम्। प्राप्त्या सह समस्तकर्मणां त्यागः सन्न्यासः अस्ति, यः मोक्षस्य पर्यायः अस्ति। इयमेव सन्न्यासस्य पराकाष्ठा समुच्यते। अतः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सन्न्यासयोगो नाम अष्टादशोऽध्यायः इति श्रीमत्परमहंसपरमानन्दस्य शिष्यस्वामी अडगडानन्दकृते श्रीमद्भगवद्गीतायाः यथार्थगीताभाष्ये सन्न्यासयोगो नाम अष्टादशोऽध्यायः। हरिः ॐ तत्सत्।